अथ पञ्चदशोऽध्यायः श्रीभगवानुवाच ऊर्ध्वमूलम् अधः शाखम् अश्वत्थम् प्राहोरव्ययम् छन्दांसि यस्य पर्णानि यस्तम् वेत् स वेदवेत् अधश्चौर्ध्वम् प्रसृतास्तस्य शाखा गुण प्रवृद्धा विषय प्रवालाः अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके न रूपमस्येतथोपलभ्यते नान्तु न चादेर्न च सम्प्रतिष्ठा अश्वत्थमेनम् सुविरूढमूलम् असङ्गशस्त्रेण दृढेन चेत्त्वा ततः पदम् तत् परिमार्गितव्यम् यस्मिन् गता न निवर्तन्ति भूयः तमेव चाद्यम् पुरुषम् प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी निर्मान्मोहाज्जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः द्वन्द्वैर्विमुक्ता सुखदुःखसंज्ञैर् गच्छन्त्यमूढाः पदमव्ययम् न तद्भास्यते सूर्यो न शशाङ्को न पावकः यद्गत्वा न निवर्तन्ते तद्धाम् परमम् मम मामैवांसु जीवलोके जीवभूतः सनातनः मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति शरीरम् यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः गृहीत्वैतानि संज्ञाति वायुर्गन्धानि वाशयात् श्रोत्रम् चक्षुःस्पृशनम् च रशनम् घ्राणमेव च अधिष्ठाय मनश्चायम् विषयान्नुपसेवते उत्क्रामन्तमिस्थितम् वापि भुञ्जानम् वा गुणान्वितम् विमूढाननुपश्यन्ति पश्यन्ति ज्ञाञ्चक्षुषः यतन्ति योगिनश्चैनम् पश्यन्त्यात्मन्यवस्थितम् यतन्त्वाप्यकृतात्मानो नैनम् पश्यन्त्यचेतसः यदादित्यगतम् तेजो जगद्भासायते अखिलम् यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् गामाविश्य च भूतानि धारयाम्यहम् ओजसा पुष्णामि चौषधी सर्वाः सोमो भूत्वा रसात्मकः अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम् सर्वस्य चाहम् हृदि सन्निविष्टो मत्तः स्मृतेर्ज्ञानमपोहनम् च वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् द्वौ इमौ पुरुषौ लोके क्षराश्चाक्षरेव च क्षरः सर्वाणि भूतानि कूटस्थो अक्षरुच्यते उत्तमात्पुरुषस्त्वन्यः परमात्मेत्य उदाहितः यो लोकत्रयमाविश्य बिभर्तव्यय ईश्वरः यस्माच्छरमतीतोऽहम् అక్షరాదపి చోత్తమః అతోస్మి లోకే వేదే చ ప్రతితః పురుషోత్తమః యో మామేవ సమ్మూఢో జానాతి పురుషోత్తమం సా సర్వవిద్భజతి మాం సర్వభావేన భారత ఇతి గుహ్యతమం శాస్త్రం ఇదం ముక్తం మయా నఘ ఏతద్ బుద్ధ్వా బుద్ధిమానస్య కృత కృత్యశ్చ భారత. ఓం తత్సదితి శ్రీమద్భగవద్గీతాసూపనిషత్సు బ్రహ్మ విద్యాయాం యోగశాస్త్రే శ్రీకృష్ణార్జున సంవాదే పురుషోత్తమ యోగో నాం పంచదశోధ్యాయః.